सदा शारदा षण्मृगाङ्का यदि स्युः समुद्यन्त एव सीता जे समन्ता सदा पूर्णबिम्बा कलङ्कैसहीना तदा त्वं मुखानां ध्रुवे सन्दसाम्यं स्फुरन् मन्दहासैः सहंसालि चञ्चत् कटाक्षावलिभृङ्गसङ्गोजलानि सुधाचन्द्रिबिम्बाधरणे ससूनो तवालोकये षण्मुखा भोसुखाणि विशालक्षुकर्णान्तदीर्घेष्वसत्रं तया सन्दिषु द्वादश शिक्षणेषु मयि सत्कटाक्ष सकृत्पादितश्चेत् भवेत्ते दयाशीलकानामहानिः सुधाङ्गोद्भवो मेऽसि जीवेति श्रद्धा जपन् मन्त्रमीशो मुदा जिग्रतेयान् जगद्भारभृद्भ्यो जगन्नाथ देव्यः किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः।